भूमिका अस्तिकत्वेन वित्तानां विपश्चित पश्चिमानां निगाये भारतेतर देशीय दर्शना गोचरा लौकिक प्रतिभा विषय प्रमेयान प्रतिपादयन्ति। एका मुस्मी केष्टा निष्ठ प्राप्ति परिहारोपाय प्रकाशना परमामनाय माश्रित्य प्रवृत्तानि षड् दर्शनानि सन्ति इति ज्ञातिरोहितं प्रेक्षावताम् तेष्वस्ति एकं न्याय दर्शनम् तत्र निराकारो व्यापको नित्यान् बुद्धिच्छा यत्न गुणान् विभ्रेदकः प्रपञ्चस्य निमित्त कारणमीश्वर इति पञ्चसु भूतेषु आकाशो नित्य इतरेषां भूतानां कारणीभूताः परमाणवो नित्यास्तत्कार्य भूतानि पृथिव्यादि भूतानि अनित्यानि पांच भौतिक नित्य नानाविध शरीरावच्छिन्ना जीवाश्च स्वात्मनः संयोगेन ज्ञानादि चतुर्दश गुण विशिष्टा अनादेह सत्सत्कर्मजन्य पुण्य पापकृत सुख दुख भाज इत्यादि बहुविवेचितम्। तत्र जीवानां बंध निवृत्तये मोक्षावाप्तये च सताम् प्रमाणादि निग्रहस्थानान्तानां षोडशानां पदार्थानां तदवान्तरभेदनाञ्च तत्त्वज्ञानात् निःश्रेयसाधिगमः इत्युक्तम् एवं सति गौतम महर्षि कृतानां पञ्चत्रिंशदुत्तर पञ्चशत संख्यकानां सूत्राणां श्रीमद्वात्स्यायन मुनि निर्मित सूत्र भाष्याणाञ्च अध्ययन अध्यापन प्रयोज्य पदार्थ तत्त्वज्ञानस्य भावाया साध्यतया अल्पायासेन पदार्थ तत्त्वावगतये श्रीमता महामहोपाध्यायेन केशव मिश्रेण गौतम सूत्राण्युपजीव्य तर्कभाषा नाम्नि वृत्तिः प्रणीता। अत्र किञ्चिदालोच्यते यद्यपि न्यायशास्त्रे व्याप्यारोपेण व्यापारोपकस्तर्कः प्रसिद्धः न्यायशास्त्रेऽपि लक्षणया तर्कशब्दः प्रयुज्यते कोशे च आशंकायां विचारे न्यायादिशास्त्रे आगमा विरोधिन्याये आगमार्थपरीक्षणे व्यविचारशङ्कानि वर्तके उहे न्यायोक्ते आत्माश्रयादि पञ्चके अविज्ञातार्थे कारणोपपत्तौ उत्प्रेक्षा याञ्च तर्कशब्द इत्युक्तम् तेषु कस्यचिदपि तर्कभाषा पदघटकतर्कशब्देन ग्रहणम् नोपयुज्यते अनन्वितार्थकत्वात्। तथापि ग्रंथकृता तर्क्यन्ते प्रतिपाद्यन्ते ये ते कर्मघयन्त तर्कशब्दे नात्र विवक्षिताः यद्वा तर्कशब्दस्य न्यायशास्त्ररूपं शक्यार्थम् आदाय तत्तत्पाद्ये लक्षणया पदार्थबोधकत्वं तर्कपदस्य एवञ्च भाष्यन्ते पदार्था अन्येति कारणे गुरोश्च हलः इत्यप्रत्ययेन भाषाशब्दो वृत्तिरूपव्याख्यापरः ननु निःश्रेयसे पदार्थतत्त्वज्ञानस्यानुपयुक्तत्वमेव मोक्षे ब्रह्मविद् ब्रह्मैव भवति एकविज्ञानेन सर्वमिदं विज्ञातं भवति आत्मा वा अरे श्रोतव्यो मन्तव्यो निरिध्यासितव्यः इत्यादि श्रुतिक् दम्बादात्मज्ञानस्यैवोपयुक्तस्य श्रुतिसिद्धत्वादिति चेत् न आत्मा इतरभिन्नः इत्याकारकात्मत्वावबोधे प्रमाणादिपदार्थानामपि तत्त्वज्ञानस्योपयोगित्वात् श्रुतिरपि सपर्यग्गाक्षुक्लमकायम् ब्रळमस्थाविरम् शुद्धम् पापविद्धम् कविर्मनीषी परिभू स्वयम्भूर्यार्थार्थ्यतोर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः इति यः कर्विक्ता मनीषी बुद्धिमान् स्वयंभू स्वयमेव तत्त्वज्ञाने प्रभवति यथार्थतः शाश्वतीभ्यः समाभ्यः अनेकवत्सरान् अर्थान् द्रव्यादिपदार्थान् व्यदधात् विवेचितवान् स एव शुक्लम् शुद्धम् अकायम् अशरीरम् अभ्रणम् दुःखशून्यम् अस्थाविरम् जरादिरहितम् शुद्धम् रागादि षड्वर्गवर्जितम् अपापविद्धम् धर्माधर्म बन्धनरहितम् आत्मानम् पर्यगात् ज्ञातवान् भवेत् इत्थं श्रुतिरपि पदार्थज्ञानस्यात्मज्ञानोपयोगित्वं बोधयति ताच तर्कभाषया न्यायशास्त्राभिमत सकल प्रमाण प्रमेयादि पदार्थानां तदवान्तरार्थाञ्च संक्षिप्य सौकर्येण बोधनेऽपि ये आधुनिका छात्राः एह लौकिक दोष निराशकान् तत्तच्छात्रीय सिद्धांत बोधक वाक्यार्थावगम शक्ति निष्पादकान् तर्कभाषा प्रतिपाद्यानर्थान् ज्ञातुमक्षमास्तानुद्दिश्य इयम् नायासतो न्यायपदार्थबोधिका अल्पाक्षरापि बहवर्थ विषयक ज्ञान जनिका अध्यापकमन्तरापि स्वयमप्यध्ययन योग्या चिदानन्दी नाम्नी संस्कृत व्याख्या हिंदी व्याख्या च न्याय वेदांताचार्येण शास्त्र रहस्य निष्णातेन श्री सुरेन्द्रनाथ शास्त्रिणा व्यधायी श्लाघनीया शास्त्र व्यसनी सकल विद्या रसिक संग्रह्या तेयम् व्याख्येति विज्ञापयन् टीकाकर्त्रे श्री सुरेन्द्रनाथ शास्त्रणे धन्यवादान् अर्पयति सभापति शर्मोपाध्यायः MLC उत्तर प्रदेश अध्यक्ष काशीस्थ बिरला संस्कृत महाविद्यालय।